तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः आज्ञापयत् तस्य वधम्। रावणः क्रोधमूर्च्छितः वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यम् नानुमेने विभीषणः संरक्षोऽधिपतिम् क्रुद्धम् तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यम् कार्यविधौ स्थितः। निश्चितार्थः तदः साम्ना पूज्यम् शत्रुचिदाग्रजम् उवाच हितमत्यर्थम् वाक्यम् वाक्यविशारदः। क्षमस्व रोषम् त्यज राक्षसेन्द्र प्रसीदमद्वाक्यमिदम् शृणुष्व। वधम् न कुर्वन्ति पदाः वरज्ञाः दूतस्य सन्तो वसुधाधिपेन्द्राः। राजधर्मविरुद्धम् च लोकवृत्तेश्च गर्हितम् तव चासदृशम् वीर कपेरस्य प्रमापणम्। धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः परावरज्ञो भूतानाम् त्वमेव परमार्थविते। गृह्यन्ते इति रोषेण त्वादृशोऽपि विपश्चितः ततः शास्त्रविपश्चित्वम् श्रम एव हि केवलम्। तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासदा। युक्तायुक्तम् विनिश्चित्य दूते दण्डो विधीयताम्। विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः रोषेण महदाविष्टः वाक्यमुत्तरमब्रवीत्। न पापानाम् वधे पापम् विद्यते शत्रुसूदन। तस्मादेनम् वधिष्यामि वानरम् पापकारिणम्। अधर्ममूलम् बहुरोषयुक्तम् अनार्यजुष्टम् वचनम् निशम्य उवाच वाक्यम् परमार्थतत्त्वम् विभीषण बुद्धिमताम् वरिष्ठः। प्रसीदलङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तम् वचनम् शृणुष्व। दूतानवध्यान् समरेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः। असंशयम् शत्रुरयम् प्रवृद्धः कृतम् ह्यनेनाप्रियमप्रमेयम्। न दूतवध्याम् प्रवदन्ति सन्तः दूतस्य दृष्टा बहवो हि दण्डाः। वैरोप्यमङ्गेषु कशापि घातः मौण्ड्यम् तथा लक्षणसन्निपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य नः श्रुतोऽपि। कथम् च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपम् नियच्छन्ति हि सत्तवन्तः। न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि। विद्येत कश्चित्तव वीरतुल्यः त्वम् ह्युत्तमः सर्वसुरासुराणाम्। सुरेण वीरेण निशाचरेन्द्र सुरासुराणामपि दुर्जयेन। त्वया प्रगल्भाः सुरदैत्यसङ्घाः जिताश्च युद्धेष्वजगन्नरेन्द्राः। इत्थम् विधस्यामरदैत्यशत्राः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति मूढा मनसो व्यलेकम् प्राणैर्वियुक्ताननु ये पुराते। न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहम् गुणम्। तेष्वयम् पात्यताम् दण्डः यैरयम् प्रेषितः कपिः। साधुर्वा यदि वा साधुः परैरेष समर्पितः। ब्रुवन् परार्थम् परवान् न दूतावधमर्हति। अपि चास्मिन् हते राजन्ने नान्यम् पश्यामि खेचरम्। इह यः पुनरागच्छेत् परम् पारम् महारथे। स्वयं नास्य वधेयत्रः कार्यः परपुरञ्जय भवान् सेन्द्रेषु देवेषु यत्र वा स्थातुमर्हति अस्मिन् विनष्टेन हि दूतमन्यम् पश्यामि यस्सौ नरराजपुत्रौ युद्धाय युद्धप्रिय दुर्विनीतौ उद्योजय दीर्घपथावरुद्धौ पराक्रमोत्साहमनस्विनाञ्च सुरासुराणामपि दुर्जयेन त्वया मनोनन्दननैर्ृतानां युद्धाय तिर्नाशयितुं न युक्ता हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः तदेकदेशेन बलस्य धावति केचित्तवादेशकृतोऽभियान्तो तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् निशाचराणामधिपानुजस्य विभीषणस्योत्तमवाक्यमिष्टम् जग्राहबुद्ध्या सुरलोकशत्रुः महाबलो राक्षसराजमुख्यः क्रोधम् जातम् हृदये निरुध्य विभीषणोक्तम् वचनम् सुपूज्य उवाच रक्षाधिपतिर्महात्मा विभीषणम् शस्त्रभृताम् वरिष्ठम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्दशसहस्रिकायाम् सुन्दरकाण्डे द्विपञ्चाशत् सर्गः।